इयम् आकाशवाणी। सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः कृष्णप्रसादोपाध्यायः। आदौ मुख्यवार्ताः। प्रधानमन्त्री नरेन्द्रमोदी आन्ध्रप्रदेशस्य कुर्नूलनगरे 30,4,13,000,00,000,000 बहुविधविकासपरियोजनानाम् उद्घाटनम् अकरोत्। केन्द्रीयग्रामविकासमन्त्री शिवराजसिंहचौहानः प्रधानमन्त्री ग्रामसड़कयोजना इत्यस्य प्रगतिं समीक्षितवान्। बिहारराज्ये विधानसभानिर्वाचनार्थं प्रचारकार्यस्य गतिः वर्धते। जेडीयू इति दलेन 44 अभ्यर्थिनां द्वितीया सूची प्रकाशिता। अपि च बैडमिंटनेति क्रीडायां लक्ष्यसेनः, पुरुष एकल क्रीडायां सात्विक साईराज रंकरेड्डी चिराग शेट्टी च, पुरुष डबल्स इति क्रीडायां अद्य डेनमार्क ओपन क्रीडायाः प्रागुपान्त्यर्धचक्रे क्रीडन्ति। अथ वार्ताः विस्तरेण। प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य आन्ध्रप्रदेशस्य कुर्नूलनगरे प्रायः 44,13,000,00,000 बहुविधविकासयोजनानाम् उद्घाटनं शिलान्यासञ्च कृत्वा परियोजनाः राष्ट्रार्पिताः। एते प्रकल्पाः उद्योगक्षेत्रेषु, विद्युत्प्रेषणक्षेत्रेषु, मार्गेषु, रेलमार्गेषु, रक्षानिर्माणक्षेत्रेषु, पेट्रोलियम् प्राकृतिक ग्यास् इत्येतेषु च क्षेत्रेषु विस्तृताः सन्ति। येन क्षेत्रीयसंरचनायाः वर्धनार्थम् औद्योगिकीकरणस्य गतिं वर्धयितुं, राज्ये सर्वसमावेशक सामाजिक आर्थिक वृद्ध्यै च सर्वकारस्य प्रतिबद्धतां प्रदर्शयति। अस्मिन् अवसरे जनसमूहं सम्बोधयन् प्रधानमन्त्री अवदत् यत् आन्ध्रप्रदेशः द्रुतगत्या विकासस्य मार्गे अग्रे गम्यमानोऽस्तीति।
साथियों, पिछले 16 महीनों में आंध्र प्रदेश में विकास की गाड़ी तेज गति से दौड़ रही है। डबल इंजन की सरकार में अभूतपूर्व प्रगति हो रही है और जैसा चंद्रबाबू ने कहा, इस तेज गति को देख करके मैं कह सकता हूं कि 2047 में आजादी के जब 100 साल होंगे, विकसित भारत होके रहेगा।
47,2,000 वर्षे यदा भारतं स्वातन्त्र्यस्य शतवर्षाणि पूरयिष्यति तदा यथार्थतया विकसित भारतं भविष्यतीति आत्मविश्वासेन वक्तुं शक्नोमीति प्रधानमन्त्री अवदत्। अस्मिन् अवसरे मुख्यमन्त्री चन्द्रबाबू नायडुः, उपमुख्यमन्त्री पवनकल्याणश्च उपस्थितौ आस्ताम्। प्रधानमन्त्री अद्य प्रातः आन्ध्रप्रदेशस्य एकदिवसीयायां यात्रायां कुर्नूलनगरं प्राप्तवान्। आगमनसमये प्रधानमन्त्री श्रीशैलम् नगरस्य श्रीभ्रामरम्ब मल्लिकार्जुनस्वामिवर्ला देवस्थानम् इत्यत्र प्रार्थनां कृतवान्। इदं मन्दिरं 12 ज्योतिर्लिङ्गेषु अन्यतममस्ति, 250 शक्तिपीठेषु च अन्यतममस्ति। केन्द्रीय ग्रामीणविकासमन्त्री शिवराजसिंहचौहानः अद्य नवदिल्ल्याम् एकस्मिन् उपवेशने प्रधानमन्त्री ग्रामसड़कयोजना इत्यस्य प्रगतिं समीक्षितवान्। मन्त्रालयः एकस्मिन् वक्तव्ये अकथयत् यत् उपवेशनावधौ केन्द्रीयमन्त्रिणे PMGSY इत्यस्याः योजनायाः राज्यानुसारं प्रगतिविषयिकी सूचना प्रदत्ता। श्रीचौहानेन प्रधानमन्त्री ग्रामसड़कयोजना इत्येषा ऐतिहासिकी योजना प्रोक्ता, यया ग्रामीणभारते महत्परिवर्तनं कृतमस्तीति। बिहारराज्ये विधानसभानिर्वाचनार्थं प्रचारकार्यस्य गतिः द्रुततया वर्धते। जेडीयू इति दलेन 44 अभ्यर्थिनां द्वितीया सूचिः अद्य प्रकाशिता। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ओन् AIR चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। गृहमन्त्री अमितशाहः अद्य पुनरुच्चारितवान् यत् सर्वकारः भ्रष्टाचारापराध आतंकवादान् विरुध्य जीरो टॉलरेंस इति नीत्याः अनुसरणं करोतीति। श्रीशाहः अद्य नवदिल्ल्यां द्विदिवसीयस्य एक्सट्रेडिशन ऑफ फ्यूजिटिव्स चैलेंजेस एंड स्ट्रेटजीज कॉन्फ्रेंसेज इत्यस्य उद्घाटनानन्तरं सम्बोधयति स्म। गृहमन्त्री अमितशाहः अकथयत् यत् सुनिश्चेतुम् एकः सुदृढः प्रकल्पः निर्मीयते येन सर्वे अपि अपराधिनः विध्यन्तर्गतम् आनेतव्याः भविष्यन्तीति। सः प्रोक्तवान् यत् पलायितान् अपराधिनः विरुध्य सुदृढं कार्याचरणं विधेयं येन ते देशस्य विधिनियमान् सम्मुखीकुर्युरिति। विधिनियमानां सुदृढीकरणाय विधिनियमान् प्रयासान् प्रकाशयन् श्रीशाहः अकथयत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे सर्वकारः देशस्य सीम्निषु सुरक्षां देशाभ्यन्तरे न्यायञ्च सुनिश्चेतुं प्रतिबद्धः अस्तीति।
भारत में करप्शन, क्राइम और टेररिज्म के खिलाफ जीरो टॉलरेंस तो जरूर रखे, मगर भारत में भारत की सरहदों के पार बैठकर इस सभी गतिविधियों को जो चला रहे हैं उनके प्रति भी जीरो टॉलरेंस और वो सभी को भारत के कानून की नेट में लाने का प्रयास और इसके लिए एक सुनिश्चित तंत्र बनाने की जिम्मेदारी भी हमारी ही है।
मुख्यमन्त्रिणः भूपेन्द्रपटेलस्य मन्त्रिमण्डले गुजरातराज्ये नवनिर्वाचिताः मन्त्रिणः शपथवचनानि स्वीकरिष्यन्ति। शपथग्रहणसमारोहः गान्धीनगरस्य महात्ममन्दिरे राज्यपालस्य आचार्यदेवव्रत इत्यस्य उपस्थितौ भविष्यति। राज्यपालः राज्यमन्त्रिमण्डलस्य विस्तारे सम्मिलितेभ्यः मन्त्रिभ्यः पदस्य गोपनीयतायाः च शपथवचनानि दास्यति। विदेशमन्त्री डॉ एस जयशंकरः अद्य नवदिल्ल्यां श्रीलंकायाः प्रधानमन्त्रिणा डॉ हरिणी अमरसूर्या इत्यनया सह मेलनम् अकरोत्। एकस्मिन् सामाजिक सन्देशे डॉ जयशंकरः अकथयत् यत् सः श्रीलंकायै भारतस्य समर्थनं शिक्षा निर्माण क्षेत्रयोः परस्पर सहयोगञ्च विधातुं चर्चाम् अकरोदिति। विदेशमन्त्री डॉ एस जयशंकरः आतंकवाद, आर्थिकास्थिरता, जलवायु परिवर्तनादिभिः उत्पन्नाः समस्याः विरुध्य देशानां मध्ये सहयोगवर्धनं सबलं प्रत्यपादयत्। सः प्रोक्तवान् यत् एताः समस्याः परस्पर सम्पृक्ताः सन्ति याः देशसीम्निषु न निबद्धाः। मन्त्रिवर्यः अद्य नवदिल्ल्यां युनाइटेड नेशंस ट्रूप कंट्रीब्यूटिंग कंट्रीज UNTCC इत्यस्य प्रमुखानां सम्मेलनं सम्बोधयति स्म। सः अकथयत् यत् भारतं शान्तिस्थापनां सभ्यतागतं सिद्धान्तम् इव पश्यति।
India has consistently advocated
भारत ने सभी समाजों और लोगों के लिए न्याय, सम्मान, अवसर और समृद्धि की हमेशा वकालत की है। यही कारण है कि हम बहुपक्षीय और अंतर्राष्ट्रीय साझेदारियों में अपना विश्वास रखते हैं।
And international partnerships.
भारतम् अद्य अवदत् यत् साम्प्रतिकेन अमेरिका सर्वकारेण तेन सह ऊर्जा सहकार सम्बन्धान् प्रगाढीकर्तुं रुचिः दर्शिता अस्ति। संवादश्च प्रचलतीति। देशस्य ऊर्जास्रोतस्य विषये प्रसारमाध्यमानां प्रश्नानां प्रतिक्रियारूपेण विदेशमन्त्रालयस्य प्रवक्ता रणधीर जयसवालः अवदत् यत् भारतदेशः बहुभ्यः वर्षेभ्यः ऊर्जाक्रयणं वर्धयितुं प्रयतमानः अस्ति, यत्र गतदशके निरन्तरतया प्रगतिः च अभवत्। प्रवक्ता अकथयत् यत् देशस्य तैल आयातनीतिः अस्थिर ऊर्जा परिदृश्ये भारतीय उपभोक्तॄणां हितरक्षणोद्देश्येन पूर्णतया मार्गदर्शिता अस्तीति। पूर्वं व्हाइट हाउस इत्यत्र पत्रकार सम्मेलने अमेरिकादेशस्य राष्ट्रपतिः डोनाल्ड ट्रम्पः अवदत् यत् अमेरिकादेशस्य भारतेन सह अतीव उत्तमः सम्बन्धः अस्ति, सः एकः अद्भुतप्रकारकः देशः अस्तीति। सः प्रधानमन्त्रिणं नरेन्द्रमोदिनं महान् व्यक्तिः इति वर्णयित्वा मलेशियादेशे आसियान शिखरसम्मेलने तं मिलितुम् उत्सुकः अस्तीति अपि उक्तवान्। वाणिज्योद्योगमन्त्री पीयूषगोयलः अवदत् यत् देशस्य अर्थव्यवस्था विगतचतुर्वर्षेभ्यः विश्वस्य द्रुतगत्या वर्धमाना अर्थव्यवस्था अस्ति, आगामि विंशतिवर्षाणि यावत् इमामेव गतिञ्च धारयितुमपि लक्ष्यम् अस्तीति। सः अवदत् यत् गतदशके 25 कोट्यधिकाः जनाः दारिद्र्यात् मुक्ताः अभवन्, नवमध्यमवर्गश्च देशस्य अर्थव्यवस्थां शक्तिं प्रददाति। श्रीगोयलः नवदेहल्यां भारत ब्राजिल व्यापार संवादम् अभिसम्बोधयन् आसीत्। वित्तमन्त्री निर्मला सीतारामन् इत्येषा कृषकेभ्यः सर्वकारस्य साहाय्येन उत्तमार्जनस्य आश्वासनं दत्तवती। अन्ते क्रीडावार्तासु। बैडमिंटनेति क्रीडायां लक्ष्यसेनः पुरुष एकल क्रीडायां सात्विक साईराज रंकी रेड्डी चिराग सेट्टी च पुरुष डबल्स इति क्रीडायाम् अद्य डेनमार्क ओपन क्रीडायाः प्रागुपान्त्यर्धचक्रे क्रीडन्ति इति वार्ताः।